इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य वीडियो कॉन्फ्रेंसिंग इत्यनेन माध्यमेन बिहारे मुख्यमंत्री महिला रोजगार योजनायाः उद्घाटनं करिष्यति। अस्मिन् कार्यक्रमे प्रधानमन्त्री सम्पूर्णे बिहार राज्ये 75 लक्षाणि यावत् महिलानां बैंक लेखासु प्रत्यक्षतया 10,000 रूप्यकाणि प्रेषयिष्यति। एकस्मिन् वक्तव्ये पीएमओ इत्यनेन उक्तं यत् बिहार सर्वकारस्य अस्य उपक्रमस्य उद्देश्यं महिलाः आत्मनिर्भरं कर्तुं स्वजीविकायाः अवसराणां च माध्यमेन महिलानां शक्तिकरणं प्रवर्धनं चास्ति इति। इयं योजना समुदाय प्रचालिता भविष्यति तथा च लाभार्थीनां महिलानां कृते स्वसहायता समूहैः सह योजयित्वा आर्थिक समर्थनं प्रशिक्षणं च प्रददाति। प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् भारते खाद्य क्षेत्रे विविधतायाः आवश्यकतायाः परिमाणस्य च त्रिगुणशक्तिः अस्ति। गतसायं नवदिल्ल्यां 25,000 तमवर्षस्य विश्व खाद्य भारत कार्यक्रमं सम्बोधयन् प्रधानमन्त्री अवदत् यत् विविधतायाः आवश्यकतायाः नवान्वेषणस्य च कारणात् भारतं निवेशस्य सर्वाधिकम् आकर्षकं गम्यस्थानमस्ति। सः अवदत् यत् भारतं वैश्विक खाद्य सुरक्षायां निरन्तरं योगदानं कुर्वन्नस्ति।
आज दुनिया और खासकर फूड सेक्टर से जुड़ा इन्वेस्टर बहुत उम्मीद से देख रहा है, क्योंकि भारत के पास डाइवर्सिटी, डिमांड और स्केल की तिहरी शक्ति है। भारत में हर अनाज की, हर फल और सब्जी की पैदावार होती है। इस डाइवर्सिटी की वजह से भारत दुनिया में सबसे खास है। भारत में विभिन्न तरह के खानों की जबरदस्त डिमांड होती है। ये डिमांड भारत को एक कॉम्पिटिटिव एज देती है और इन्वेस्टर के लिए भारत को एक प्रीफर्ड डेस्टिनेशन भी बनाती है।
विदेश मंत्री डॉक्टर एस जयशंकर न्यूयॉर्क नगरे आयोजितस्य G20 विदेश मंत्रीणां मण्डलस्य सम्मेलने अन्ताराष्ट्रिय शान्तेः वैश्विक विकासस्य च परस्पर सम्बन्धस्य विषये अवधानं प्रदत्तवान्। स्वस्य भाषणे डॉक्टर एस जयशंकरः अवदत् यत् ऊर्जायाः, आहारस्य, उर्वरकस्य च सुरक्षायाः विषये विशेषतः वैश्विक दक्षिण इत्यस्य कृते व्ययः मुख्यतया युक्रेन गाजा देशयोः वर्तमान संघर्षैः स्पष्टतया प्रदर्शितः अस्ति इति। विदेश मंत्री डॉक्टर एस जयशंकरः अवदत् यत् अनिश्चिततायाः काले विश्वम् आत्मनिर्भरता, प्रौद्योगिकी बहुध्रुवीयता, दक्षिण-दक्षिण सहयोगं च परस्परं सुदृढं करिष्यति। ह्यः न्यूयॉर्क नगरे वार्षिक ORF समित्याः चर्चायां प्रवदन् डॉक्टर जयशंकरः अवदत् यत् वैश्विक कार्यबलस्य उद्भवः भविष्यति, यत् समकालीन आवश्यकतायाः अनुरूपं भविष्यति इति।
Peace can certainly enable development, but by threatening development, we cannot facilitate peace. Making energy and other essentials more uncertain in an economically fragile situation helps no one. Therefore, the way out is to move the needle towards dialogue and diplomacy, not in the opposite direction towards further complications.
केन्द्रीय गृहमन्त्री अमित शाहः अद्य कोलकाता नगरे त्रीणि दुर्गा पूजा मण्डपानि उद्घाटयिष्यति। सः कोलकाता नगरस्य लेबुतला नगरे सन्तोष मित्र स्क्वेयर दुर्गा पूजा मण्डपम् उद्घाटयिष्यति। अस्य पूजायाः आकर्षणम् अस्ति ऑपरेशन सिन्दूर इति। सः नगरे सेवक संघस्य अपरस्य दुर्गा पूजायाः अपि उद्घाटनं करिष्यति। अपराह्ने मन्त्रिणः साल्ट लेक इत्यत्र ईस्टर्न जोनल कल्चर सेंटर EZCC इत्यत्र दुर्गा पूजा उद्घाटन कार्यक्रमे भागं ग्रहीष्यति। क्रिकेट क्रीडायां पाकिस्तान देशः गतरात्रौ दुबई नगरे 25,000 तम वर्षस्य एशिया चषक स्पर्धायाः सुपर फोर क्रीडायां बांग्लादेशम् 11 धावनांकैः पराजित्य निर्णायक द्वन्द्वे प्रविष्टम्। अनेन विजयेन इदानीं रविवासरे निर्णायक द्वन्द्वे पाकिस्तान दलं भारतं सम्मुखीकरिष्यति। अवधेयं यत् एशिया चषक क्रीडायाः 17 संस्करणेषु प्रथमवारं भारत पाकिस्तान देशौ अन्तिम स्पर्धायां सम्मुखे स्तः इति वार्ताः।